विश्वतो मुखः विश्वेश्वरो विश्वयो निर्नियतात्मा जितेन्द्रियः कालाश्रयः कालकर्ता कालः कालनाशनः महायोगी महाबुद्धिर्महात्मा सुमहावलः प्रभुर्विभुर्भूतनाथो भूतात्मा भुवनेश्वरः भूतभव्यो भवित्मात्मा भूतान्तःकरणशिवः शरण्यः कमलानन्दो नन्दनो नन्दवर्धनः वरेण्यो वरदो योगी सुसंयुक्तप्रकाशकः कल्पकर्ता कल्पान्तःकरणो रविः एकचक्ररथो मौनी सुरथो रथिनंवरः अक्रोधनो रश्मिमाली तेजो रशिर्विभावसुः दिव्यकृत्तिन कृत्तेवो देवदेवो दिवस्पतिः धीरनाथो हविहोर्ता दिव्यबाहु दिवाकरः यज्ञो यज्ञपतिः पुषा स्वर्णरेतः परावरः परापरज्ञसतरुणीरंशुमाली मनोहरः राज्ञः प्रजापतिः सूर्य सविता विष्णुरंशुमन् सदा गतिर्गन्धबाहो विहितो विधिराशुगः पतङ्गः पतगः स्थानो सर्वतो मानो भवितात्मा विषग्वरः अलोककृल्लोकनाथो लोकलोक नमस्कृतः कालकल्पान्तको वह्निस्तपनः सम्प्रतापनः विरोचनो विरूपाक्षः सहस्राक्षः पुरन्दरः सहस्ररश्मिर्मिहिरो विधिधाम्बरभूषणः खगः प्रतर्दनो धान्यो हयगो वाग्विशारदः श्रीमाक्षशिशिरो वाङ्मी श्रीपतिः श्रीनिकेतनः श्रीकण्ठ श्रीधर श्रीमान् श्रीनिवासो वसुप्रदः कामचारो महामायो महेशो विदिताशयः तीर्थक्रियावन् सुनयो विभवो भक्तवत्सलः कीर्तिः कीर्तिकरो नित्य कुण्डली कवचीरति हिरण्यरेत सप्तश प्रयतात्मा परन्तपः बुद्धिमान् अमरा श्रेष्ठो रुचिष्णु पातशासनः समुद्रो धनदो धाता मान्धता कश्मलापः तमग्नो भान्तः वह्निर्भूतान्तःकरणो गुहः पशुमान् प्रयतानन्दो भूतेशः श्रीमातवरं नित्यादितो नित्यरथः सुरेशः सुरपूजितः अजितो विजयो जेता जन्मस्था शकः ध्रुवो मेधी महावीर्यो हंसः संसारतारकः सृष्टिकर्ता क्रिया हेतुर्मार्दण्डो मरुकम्पतिः मरुत्वन्दः न स्पष्टा भागो भागोर्यमापतिः वरुणांशो यगनाथः कृतः कृतः सुलोचनः विवस्वान् भानुमस्कर्य कारणं तेजसंनिधिः असङ्गवामितिग्मांशूर्धर्मधि दीप्तधीदितिः सहस्रधिति दिग्भग्नः सहस्रंशो दिवाकरः गभस्तिमान् विदितिमान् षग्विमान् अतुलद्युतिः भास्करः सुरकार्याज्ञ सर्वज्ञस्तिघ्नदीदितिः सुरज्येष्ठा सुरपतिर्बहु योगवचस्सम्पतिः तेजोनिधिर्बृहत्तेजा बृहत्कीर्ति बृहस्पतिः अहिमानूजितो धीमान् अम्युक्तो कीर्तिवर्धनः महावैद्य गणपति गणेशो गणनायकः तीव्रप्रतापनस्तापि श्वरो ऋषिकेशः पद्मनन्दो विनन्दितः पद्मनाभो मृताहारः स्थितिमान् केतुमन्नवः अनाद्योऽन्तोऽच्युतो विश्वो विश्वामित्रो गृणी विराट् अम्युक्तो कवची वाङ्मी कञ्चुकि विश्वभावनः अनिमित्तगतिः श्रेष्ठः शरण्यः सर्वतोमुखः गहिरेणुरसः समयुक्तः समाहितः धूम्रकेतुर्धर्मरतिः संहर्ता सयङ्मो यमः स्मृणतार्तिहरो वादी सिद्ध्यकार्यो जनेश्वरः नभो विगाहनः सत्तः तामसः सुमनोहरः हरि हरि हरियो वायु सेव्यो महातेजा जगतां मन्तकारणं महेन्द्रो विष्णुतो स्तोत्रं स्तुतिहेतु प्रभाकरः सहस्रकल आयुष्मान् आरोष सुखद सुखी व्याधिः सुखद सौख्यं कल्याण कल्पिनाम्बरः आरोग्य कर्मणां सिद्धि वृद्धिर्सिद्धि बृहस्पतिः हिरण्यरेत आरोग्यं वित्तं बन्धुर्भूतो महान् प्राणवान् धृतिमान् धर्मो धर्मकर्ता रुचिप्रदः सर्वप्रियः सर्वसः सर्वशत्रुनिवारणः प्रांशुर्विद्योतनो द्योतोः सहस्रकिरणः कृतिः केयुर्भूषणोद्भाषी भाषितो भाषणो नलः खगसत्तमः सर्वदूतो महाद्योतो सर्वदूतीकरो मलः कल्याणकल्यनाकरः कल्पः कल्पकरः कविः कल्याणकृतः कल्पवपुः सर्वकल्याणभाजनः शान्तिप्रियः प्रसन्नात्मा प्रशान्तः प्रसमप्रियः उदारकर्मसूनयः वर्चावर्चसोज्ज्वलः वर्चस्विवर्चशामीशस्त्रैलोक्येषु वशानुगः तेजस्वीषु शयंवर्णीवर्णाध्यक्षुबलप्रियः यशस्वी वेदनिलयस्तेजस्वी प्रकृतिस्थितः आकाशगः शिख्रगतिराशुकः श्रुतिमान् खगः गोपतीर्घः देवेशो प्रजगण्डीवो दीपः सर्वप्रकाशकः विशिष्ट विशिष्टात्मा विधेयो ज्ञान शोभनः महाश्वेता प्रियो ज्ञाय सामगो मोददायकः सर्ववेत प्रगीतात्मा सर्ववेदो गयालयः वेदमूर्तिश्चतुर्विदो वेदवृत् वेदपारगः क्रियावान् अतिरोचिष्णु
चतुर्वेदधरो नित्यो विनिद्रो विविधाशनः
पुष्करणी भो वसुमान वसव प्रिय वसुमान वासव स्वामी वसुराता वसुप्रद बलवान ज्ञानवंस्तत्व ओंकारस्त्रिषु संस्थित संकल्पयोनिधिर्नकृत् भगवान करणवः नीलकंठो धनाध्यक्ष चतुर्वेद प्रियं वदः वषट्कारो हुतं होता स्वाहाकारो हुताहुति जनार्दनो जनानंदो नरो नारायणो बुधः स्वन्नाउ सुरसुर नमस्कृतः विग्रहो विमलो विंदुर्वीशुको विमलत्वति दोति दोतो तनो विद्वान् विविद्वान् वरदो बलि धर्मयो निर्महात्महो विष्णु भ्राता सनातनः सावित्री भावितो राजा विश्रितो विघ्नि विराट् सप्तार्चि सप्ततुरग सप्तलोक नमस्कृतः सृष्टि शक्तिमान सप्तमी प्रिय सुमेधा माधवो मेध्यो माधवी मधुसूदन अंगिरा गति कालज्ञो धूमकेतु सुकेतन सुखी सुख प्रद सौख्यं कामी कांति प्रियो मुनि संतापन संतपन आतपी तप संपति उग्रशवाशहस्रोषः प्रियंकारो प्रियंकरः प्रीतो विमोनरो बोधो जीवनो जगतं पतिः जगत्पिता प्रीतमाना सर्वस्वर्वो गुहावलः सर्वगो जगदानंदो जगन्नीता सुरारिः श्रेयः श्रेयस्करो
लोकगुरुर्लोकेशश्चन्दवाहन धर्मरूपः सूक्ष्म
सहस्रनाम स्तोत्रं संपूर्णम्।